ॐ नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। राजोवाच, यानि यानि ह कर्माणि यैर्यै स्वच्छन्दजन्मभिः चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः। द्रुमिल उवाच, यो वा अनन्तस्य गुणानन्ताननुक्रमिष्यन् स तु बालबुद्धिः। रजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवाखिलशक्तिधाम्नः। भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः। यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ज्ञानं स्वतः श्वसनतो बलमोज इह सत्त्वादिभिः स्थितिलयोद्भवादिकर्ता। आदावभूच्छतधृतिरजसास्य सर्गे विष्णुस्थितौ क्रतुपतिर्द्विजधर्मसेतुः। रुद्रोऽप्ययायतमसा पुरुषः साद्य इत्युद्भवस्थितिलया सततं प्रजासु। धर्मस्य दक्ष दुहितर्यजनिष्टमूर्त्यां नारायणो नरऋषिप्रवरः प्रशान्तः। नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्तऋषिवर्य निषेविताङ्घ्रिः। इन्द्रो विशङ्क्य मम धाम जिगृक्षतीति कामं न्ययुङ्क्त सगणं सबदर्युपाख्यम्। गत्वाप्सरोगणवसन्त सुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः। विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान्। मा भयेष्टभो मदनमारुतदेववध्वो गृह्णीतनो बलिमशून्यमिमं कुरुध्वम्। इत्थं ब्रुवत्य भयदे नरदेवदेवाः सव्रीडनं रशिरसः सघृणं तमूचुः। नैतद्विभो त्वयि परे विकृते विचित्रं स्वारामधीरनिकरानतपादपद्मे। त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदन्ते। नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि। क्षुत्रित्रिकालगुणमारुतदैव्यसहिष्ण्या नस्मानपार जलधी न तितीर्य केचित्। क्रोधस्य यान्ति विफलस्य वशं पदे गोर्मज्जन्ति दुश्चर तपश्च वृथोत्सृजन्ति। इति प्रगृणतां तेषां स्त्रियोत्यद्भुतदर्शना दर्शयामास शुश्रूषां स्वर्चिता कुर्वतीर्विभुः। ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः गन्धेन मुमुहुस्तासां रूपौदार्य हतश्रियः। तानाः देवदेवेशः प्रणतान् प्रहसन्निव आचामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम्। ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः उर्वशीमप्सरः श्रेष्ठां पुरस्कृत्य दिवं ययुः। इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् ऊचुर्नारायणबलं शक्रस्तत्रा सविस्मितः। हंसस्वरूप्य वददच्युतात्मयोगं दत्तः कुमार ऋषभो भगवान् पितानः। विष्णु शिवाय जगतां कलयावतीर्णः तेनाहृता मधुपिता सुतयो हयास्ये। गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरतां भसक्ष्माम्। कौर्मे धृतो दृढमृतोन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम्। संस्तुन्वतोऽब्धिपतितान् श्रमणान् नृसींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम्। देवस्त्रियो सुरगृहे पिहिता अनाथा जघ्ने सुरेन्द्रमभयाय सतां नृसिंहे। देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनान्यदधात् कलाभिः। भूत्वाथवामन इमामहरद्बलेक्ष्माम् याच्याच्छलेन समदादिते सुतेभ्यः। निःक्षत्रियामकृतगां च त्रिसप्त कृत्वो रामस्तु है हयकुलाप्यय भार्गवाग्निः सोब्धिं बबन्ध दशवक्त्रमहंसलङ्कम् सीतापतिर्जयति लोकमलग्नकीर्तिः भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि वादैर्विमोहयति यज्ञकृतो तदर्हान् शूद्रान् कलौ क्षितिभुजोऽन्यहनिष्यदन्ते एवं विधानि कर्माणि जन्मा निजजगत्पतेः भूरीणि भूरियशसो वर्णितानि महाभुज ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादश स्कंधे चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।